राम श्रीमद्भागवत महापुराण मूल पाठ श्रीमद्भागवत महापुराण तृतीय स्कंद 33 अध्याय 33 ट्रेक में।
ओम तत्सत। ओम नमो भगवते वासुदेवाय। श्रीमद्भागवत महापुराणम तृतीय स्कंद अथ प्रथमोध्याय। श्रीशुक उवाच। एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल क्षत्रावनम् प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत्। एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल क्षत्रावनम् प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत्। यद्वायम् मन्त्रकृद्वो भगवानखिलेश्वरः पौरवेन्द्रगृहम् हित्वा प्रविवेशात्मसात्कृतम्। राजोवाच। कुत्र क्षत्रुर्भगवता मैत्रेयेणास सङ्गमः? कदा वा स संवाद एतद्वर्णयनः प्रभो? न यल्पार्थोदयस्तस्य विदुरस्यामनात्मनः। तस्मिन् वरीयसि प्रश्नः साधुवादोपब्रह्मितः। सूत उवाच। स एव मृषिवर्योऽयम् पृष्टो राज्ञा परीक्षिता प्रत्याहतम् सुबहुवित्प्रीतात्मा श्रूयतामिति। श्रीशुक उवाच। यदा तु राजा स्वसुतान् साधून् पुष्णन्न धर्मेण विनष्टदृष्टिः। भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह। यदा सभायाम् कुरुदेवदेव्याः केशाभिमर्षम् श्रुतकर्मगर्यम् नवारयामास नृपस्नुषायाः स्वाश्रैर्हरन्त्या कुचकुङ्कुमानि। द्यूते त्वधर्मेण जितस्य साधोः सत्यावलम्बस्य वनागतस्य। न याचतोदात् समयेन दायम् तमो जुषाणो यदजातशत्रोः। यदा च पार्थ प्रहितः सभायाम् जगद्गुरुर्यानि जगाद कृष्णः। न तानि पुंसामृतायनानि राजोरुमेने क्षतपुण्यलेशः। यदोपहूतो भवनम् प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन। अतः तन्मन्त्रदृशाम् वरीयान्यन्मन्त्रिणो वैदुरिकम् वदन्ति। अजातशत्रोः प्रतियच्छदायम् तितिक्षतो दुर्विषहम् तवागः। सहानुजो यत्र वृकोदराहिः श्वसन् रुषाय त्वमलम् बिभेषि। पार्थान्स्तु देवो भगवान् मुकुन्दो गृहीतवान् सक्षिति देवदेवः। आस्ते स्वपुर्याम् यदुदेवदेवो विनिर्जिता शेषनृदेवदेवः। स एष दोषः पुरुषद्विडास्ते गृहान् प्रविष्टो यमपत्यमत्या। पुष्णासि कृष्णाद् विमुखो गतः श्रीश्चजाश्वसैवम् कुलकौशलाय। इत्युचिवान्स्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण। असत्कृतसत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन। क एन मत्रोपजुहावजिह्मम् दास्यासुतम् यद्बलिनैव पुष्टः। तस्मिन् प्रतीपः परकृत्यास्ते निर्वास्यतामाशु पुराच्छ्वसानः। स इत्थमत्युल्बणकर्णबाणैर्भ्रातो पुरो मर्मसुताडितोऽपि। स्वयम् धनुर्द्वारि निधाय मायाम् गतव्यथो या दुरुमानयानः। स निर्गतः कौरवपुण्यलब्धो गजाव्ययातीर्थपदप्पदानि। अन्वाक्रमत्पुण्यचिकीर्षयोर्व्याम् स्वधिष्ठितो यानि सहस्रमूर्तिः। पुरेषु पुण्योपवनात्रिकुञ्जे स्वपङ्कतो येषु सरित्सरस्सु। अनन्तलिङ्गैः समलङ्कृतेषु चचारतीर्थायतनेष्वनन्यः। गाम् पर्यटन्मेध्य विविक्तवृत्तिः सदा प्लुतोऽथ शयनोऽवधूतः। अलक्षितस्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि। इत्थम् व्रजन् भारतमेव वर्षम् कालेन यावद् गतवान् प्रभासम्। तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः। तत्राथ शुश्रावसुहृद्विनष्टिम् वनम् यथा वेणुजवन्यसंश्रयम्। संस्पर्धया दग्धमथानुशोचन् सरस्वतीम् प्रत्यगियाय तूष्णीम्। तस्याम् त्रितस्यो सनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः। तीर्थम् सुदासस्य गवाम् गुहस्य यच्छाद्धदेवस्य स आशिषेवे। अन्यानि चेह द्विजदेवदेवै कृतानि नानायतनानि विष्णोः। प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णमनुस्मरन्ति। ततस्त्वतिव्रज्य सुराष्ट्रमृद्धम् सौवीरमत्स्यान् कुरुजाङ्गलांश्च। कालेन तावद् यमुनामुपेत्य तत्रोद्धवम् भागवतम् ददर्श। स वासुदेवानुचरम् प्रशान्तम् बृहस्पतेः प्राक्तनयम् प्रतीतम्। आलिङ्ग्य गाढम् प्रणयेन भद्रम् स्वानामपृच्छत् भगवत्प्रजानाम्। कश्चित् पुराणौ पुरुषौ स्वनाभ्य पाद्मानुवृत्तेः किलावतीर्णौ। आसातौर्व्याः कुशलम् विधाय कृतक्षणौ कुशलम् शूरगेः। कश्चित् कुरूणाम् परमसुरिण्णो भामस्य आस्ते सुखमङ्गशौरिः। यो वै स्वश्रीणां पितृवत् ददाति वरान् वदान्यो वरतर्पणेन कश्चिद्वरुथाधिपतिर्यदूनां प्रद्युम्नास्ते सुखमङ्गवीरः यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे कच्चित् सुखं सात्वतवृष्णिभोज दाशार्हकाणामधिपः स आस्ते यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् कच्चिद्धरे सौम्यसुतसदृक्ष आस्ते ग्रणीरथिनां साधु साम्बः असूतयं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे क्षेमं स कच्चिद्युयुधान आस्ते यः फाल्गुणाल्लब्धधनुरहस्यः लेभेऽञ्जसाधोक्सज सेवयैव गतिं तदीयां यतिभिर्दुरापाम् कच्चिद्बुधा स्वस्त्यनमीवास्ते स्वफल्कपुत्रो भगवत्प्रपन्नः यः कृष्णपादाङ्कितमार्गपांसु स्वचेष्टतप्रेम विभिन्नधैर्यः कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः या वै स्वगर्भेण दुधार देवं त्रयी यथा यज्ञवितानमर्थम् अपि स्विदास्ते भगवान् सुखं वो यः सात्वतां कामदुघो निरुद्धः यमामनन्ति स्म शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् अपि स्विदन्ये च निजात्मदैव मनन्यवृत्त्या समनुव्रता ये हृदिकसत्यात्मजचारुदेष्ण गदादयः स्वस्ति चरन्ति सौम्य अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् दुर्योधनोतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या किं वा कृताघे स्वघमत्यमर्षि भीमो हि वद्दीर्घतमं व्यमुञ्चत् यस्यान्ध्रिपातं रणभूर्नसेः मार्गं गदायाश्चरतो विचित्रम् कश्चिद् यशोधा रथयूथपानां गाण्डीवधन्वो परतारिरास्ते अलक्षितो यच्छरकूटगूढो माया किरातो गिरिशस्तुतोष यमावुतस्वित्तनयौ पृथाया पार्थैर्वृतौ पक्ष्मभिरक्षिणीव रेमात उद्दाय मृधे स्वरिक्थं परात् सुपर्णा विववज्रिवक्त्रात् अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापितेन यस्त्वेकविरोधिरथो विजिज्ञे धनुर्द्वितीय ककुभश्च तस्रः सौम्यानुशोचे तमधः पतन्तं भ्रात्रे परेताय विदुद्रुहेयः निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन सोऽहं हरेर्मर्त्य विडम्बनेन दृशो नृणां चालयतो विधातुः नान्योपलक्ष्य पदवीं प्रसादाच्चरामि पश्यन् गतविस्मयोऽत्र नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभिः वधात् प्रपन्नार्तिचिहीर्षयेषोऽप्युपैक्षताघं भगवान् कुरूणाम् अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् तस्य प्रपन्नाखिललोकपानामवस्थितानामनुशासने स्वे अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्तेः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे विदुरोद्धव संवादे प्रथमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।